सहस्रजे सा पुरुषः सहस्राक्षः सहस्रपाद सभूमिम् विश्वतो मृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदकम् सर्वम् यद्भोजम् यच्च भव्यम् भूतामृतत्वस्येषानः यदन्नेनाधिलोहति वेदावानस्य महिमा अथो ज्यायागश्च पूरुषः पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतम् दिवे त्रिपादोऽर्धमुदयत् पुरुषः पादोऽस्येहाभवात्मनः ततो विश्वम् यद्गामत् साचनामशने अधि तस्मात् विराडजायत विराजो अधिपूरुषः स जातो अत्यरिच्छत पश्चाद्भूमिमतो पुरः यत्पुरुषेण हविषा देवायज्ञमदन्वत वसन्तो अस्याजीराज्यम् ग्रीष्मयुग्मशरद्भविः सप्तास्यासन्परिधयः सप्तसविधकृताः देवाय गृह्यन्दन्वानाः अवध्वन् पुरुषम् वशम् तैयज्ञम् बर्हिः प्रोक्षन् पुरुषम् जातमकृतः तेन देवा अयजन्त साध्यायश्च ये तस्माद्विज्ञात् सर्वभूतः संवृतम् वृषराज्यम् अशोकस्तागस्तक्रेवायव्यानि आरण्याम् ग्राम्याश्रये तस्माद्विज्ञात् सर्वभूतः यजः सामानि जज्ञे छन्दागुंसि जज्ञे तस्मात् यजस्तस्मादजायत तस्मादश्वाजायन्त भयाजतः गावो हयज्ञे तस्मात् तस्माद्धाताजावयः यत्पुरुषम् गतः कथिता व्यकल्पयन् मुखज्ञमस्य को बाहो कावोरोपादामुच्छेद ब्राह्मणोऽस्य मुखमासीत् बाहोरादन्य कृतः पूरोदकस्य यद्वैश्यः अद्धागुम् सोऽत्र अजायत चन्द्रमा मनसो जातः चक्षो सूर्य अजायत मुखालिङ्गश्चाग्निश्च प्राणाद्वायुरजायत माभ्या आसेदन्तरिक्षम् शेषाद्यौ समवर्तत अद्भाम्भोमिर्दिश श्रोत्रात् तथा लोकागम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु काले सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वा विगत नियतास्ते ध्याता पुरस्ताद्यमुदा जहार शक्रप्रभिप्रान्तदिशश्चतस्रः तमेवम् विद्वानमृत इह भवति मान्यः पञ्चायनाय विद्यते यज्ञेन यज्ञमयजन्तदेवाः तानि धर्माणि प्रथमाज्ञासन् देहनाथम् महिमानः सन्ते यत्र पूर्वे साध्याः सन्ति देवाः अर्थः सम्भोध पृथिवीरथाश्च विश्वकर्मणः समवर्धदाधि तस्य दृष्टा विदधद्रूपमेधे तत्पुरुषस्य विश्वमादानमग्रे वेदाहमेदम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्परस्तात् तमेवम् विद्वानमृत इह भवति नान्यम् पञ्चा विद्यते जनाय प्रजापतिश्चरति गर्भे हन्तः अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मदीसीनाम् कृतमिच्छन्ति वेधसः यो देवे धानपति यो देवानाः पुरोहितः पूर्वो यो देवेभ्यो दातः नमो ऋताय ब्राह्मये ऋतम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्यैवम् ब्राह्मणा विद्यात् तस्य देवाः संवसे ईषदे लक्ष्मीस्तपत्न्यौ अहोरात्रे पार्श्वे नक्षत्रानिरूपम् अश्विनौ यात्तम् इष्टम् मणिधान अमुम् मणिधान सर्वम् मणिधान ॐ शान्तिः शान्तिः शान्तिः।